एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली चीनदेशस्य भ्रमणस्य क्रमे ह्य बेइजिङ नगरम् प्राप्तवान् अस्ति। प्रधानमन्त्रिणः ओलिनः बेइजिङवर्तिनः बेइजिङ क्यापिटल अन्तर्राष्ट्रिय विमानस्थले चीनदेशस्य साम्यवादी दलस्य वैदेशिक विषयस्य उपमन्त्रिणा सुनवेई दोङ इत्यनेन स्वागतम् विहितम् आसीत्। चीनदेशस्य प्रधानमन्त्रिणः ली छ्याङ इत्यस्य मैत्रीपूर्णायाम् निमन्त्रणायाम् प्रधानमन्त्री ओली ह्य बेइजिङ नगरम् प्राप्तवान्। भ्रमणस्य क्रमे प्रधानमन्त्रिणा ओलिना चीनदेशस्य राष्ट्रपतिना शी जिनपिङ इत्यनेन सह मेलवार्तायाः कार्यक्रमः निर्धारितोऽस्ति। प्रधानमन्त्रिणा ओलिना चीनदेशस्य समकक्षिणा ली इत्यनेन सह मेलवार्ताम् विधाय द्विपक्षीयस्य पारस्परिक हितस्य विविधेषु पक्षेषु विमृक्ष्यते। प्रधानमन्त्रिणः ओलिनः चीनदेशस्य राष्ट्रिय जनक कांग्रेस स्थायी समितेः अध्यक्षेण झाओ होजी इत्यनेन सहापि मेलवार्तायाः कार्यतालिका वर्तते। भ्रमणस्य क्रमे प्रधानमन्त्री ओली पेकिङ विश्वविद्यालये सम्बोधयिष्यति। एवमेव प्रधानमन्त्री ओली बेइजिङ वर्तिनः नेपाली राजदूतावासस्य चाइना काउन्सिल फर द प्रमोशन अफ इन्टरनेशनल ट्रेड संस्थायाः नेपालोद्योग वाणिज्य महासंघस्य च संयुक्तायोजनायां पक्ष्यमानं नेपाल चीन व्यापार मञ्चम् च सम्बोधयिष्यति। प्रधानमन्त्रिणः ओलिनः भ्रमणस्य क्रमे संशोधनपूर्वकं बीआरआई परियोजनायाः क्रियान्वयनाय नेपालः तत्परो वर्तते। चीनदेशेन प्रस्तावितायाः बीआरआई परियोजनायाः क्रियान्वयनाय संविधायाः निर्माणस्य विषयाय नेपाल सर्वकारेण कार्यदलं निर्माय एव संशोधनपूर्वकम् अन्तिमरूपं प्रदत्तमस्ति। कार्यदले प्रधानमन्त्रिणः प्रमुख परामर्शदाता विष्णु रिमालः, नेपाली कांग्रेस दलस्य महामन्त्री गगन थापा, पूर्वार्थमन्त्री डाक्टर युवराज खतिवडा च आसन्। राष्ट्रपतिना रामचन्द्र पौडेलेन प्रधानमन्त्रिणः अनुपस्थितौ प्रधानमन्त्रिणः दैनिक प्रशासनिक कार्य सञ्चालनार्थम् उप प्रधान नगरीय विकास मन्त्री प्रकाश मान सिंह कार्यवाहकत्वेन निर्धारितोऽस्ति। प्रधानमन्त्रिणा नेकपा एमाले दलस्य अध्यक्षेण च केपी शर्मा ओलिना दलस्य कार्यवाहका अध्यक्षस्य दायित्वं वरिष्ठोपाध्यक्षाय ईश्वर पोखरेलाय दत्तमस्ति। परह्य सम्पन्नस्य स्थानीय स्तरस्य उपनिर्वाचनस्य मतगणनायाः अधुनावधि अष्टात्रिंशत स्थानानाम् अन्तिमः परिणामः सार्वजनीभूतोऽस्ति। पालिकानाम् प्रमुखो प्रमुखानाम् वडाध्यक्षाणाम् अध्यक्षो वडाक्षेत्राणाम् अध्यक्षोपाध्यक्षाणाम् च जनपद समन्वय समिते अध्यक्षाणाम् चेति कृत्वा समग्रतः एकचत्वारिंशत पदानाम् कृते विहिते उपनिर्वाचने नेपाली कांग्रेस दलेन सप्तदशसु, नेकपा एमाले दलेन सप्तसु, नेकपा माओवादी केन्द्रेण नवसु, जनता समाजवादी दल नेपालेन द्वयो, रासुपा दलेन एकस्मिन्, नेमकिपा दलेन एकस्मिन्, नेकपा एकीकृत समाजवादी दलेन एकस्मिन्, स्वतन्त्रेण प्रत्याशिना एकस्मिन् च स्थानेषु विजय अधिगतो स्थिति निर्वाचन आयोगेन ज्ञापितम्। नेपाली कांग्रेस दलेन षोडशसु वडाध्यक्षेषु विजय सम्प्राप्तोऽस्ति। नेकपा एमाले दलेन ग्रामपालिकायाः एकस्मिन् अध्यक्षपदे, एकस्मिन् उपाध्यक्षपदे, पञ्चसु वडाध्यक्षपदेषु च, नेकपा माओवादी केन्द्रेण एकस्मिन् उपप्रमुखपदे, एकस्मिन् अध्यक्षपदे, एकस्मिन् उपाध्यक्षपदे च, पञ्चसु वडाध्यक्षपदेषु च विजय अधिगतोऽस्ति। एवमेव जनता समाजवादी दलेन द्वयोः वडाध्यक्षपदयोः, रासुपा दलेन एकस्मिन् वडाध्यक्षपदे, नेमकिपा दलेन एकस्मिन्, नेकपा एकीकृत समाजवादी दलेन एकस्मिन् च वडाध्यक्षपदयोः विजयः प्राप्तोऽस्ति। काष्ठमण्डप जनपदस्य कीर्तिपुर नगरपालिकायाः प्रमुखपदे नेपाली कांग्रेस दलस्य प्रत्याशी कृष्णमान डंगोल विजयी सम्भूतोऽस्ति। प्राप्त परिणामस्य अनुसारेण विजयी सम्भूतेन डंगोल इत्यनेन पञ्चसहस्राणि शतत्रयम् चतुस्त्रिंशत् च मतानि प्राप्तानि सन्ति। एतस्य निकटतम प्रतिस्पर्धिना नेकपा माओवादी केन्द्रस्य शिवशरण महर्जन इत्यनेन सहस्रचतुष्टयम् पञ्चशतम् पञ्चाशत् च मतानि प्राप्तानि आसन्। नेकपा एमाले दलस्य सुरेन्द्र मानन्दर इत्यनेन सहस्रचतुष्टयम् शतत्रयम् सप्तत्रिंशत् च मतानि अधिगतानीति निर्वाचनाधिकृतः इन्दिरा कार्की अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन गर्भाशयस्य अर्बुद रोगस्य नियन्त्रणाय द्वयोः लक्ष्ययोः 50,000 च महिलानां परीक्षणं रोगान्वेषणं च विधास्यते। मन्त्रालयस्य अन्तर्गततया परिवार कल्याण महाशाखया आरष्टं 33 वर्षाणां वयसः आरभ्य 49,50 वर्षपर्यन्तिकानां महिलानां गर्भाशयस्य अर्बुद रोगस्य परीक्षणं विधास्यते। स्वास्थ्य जनसंख्या मन्त्रिणा प्रदीप पौडेलेन गत श्रावण मासस्य 27 दिवसे सार्वजनिककृतायां योजनायां प्राथमिकतया महिलानां गर्भाशयस्य अर्बुदस्य स्तनार्बुदस्य च नियन्त्रणाय अभियानपूर्वकं परीक्षणस्य कार्यं सञ्चालयिष्यते इति उल्लिखितम् आसीत्। कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी विश्वस्य प्रविधि युगे प्रवेशेन सहैव बीजजात क्षेत्रमपि प्रविधिना सह योजयितुं बलं ददाति। यः बीज सम्बद्धस्य देशिष्टु नामाख्य सफ्टवेयर प्रविधेः शुभारम्भं विदधान मन्त्री अधिकारी कृषिक्षेत्रस्य सूचना प्रविधिना सह योजनस्य आवश्यकतां दर्शितवान्। पेयजल मन्त्री प्रदीप यादव कर्णाली प्रदेशे विस्तृत योजनया सह सर्वविध प्रक्रियाणां पूरकाः पेयजल योजनाः वित्तस्य अभावेन अवरुद्धाः न भविष्यन्तीति समाश्वासयति। कर्णाली प्रदेशस्य मुख्यालये सुर्खेत जनपदस्य वीरेन्द्रनगरे ह्य संघीय पेयजलावकर व्यवस्थापना योजनायाः अन्तर्गतस्य ग्रामीण पेयजल सेवा सहायता केन्द्रस्य शुभारम्भ कार्यक्रमे पेयजल मन्त्री यादवः वित्तस्य अभावं प्रदर्श्य कार्यावरुद्धासु संघीय पेयजलायोजनासु अतः परं समस्या न भविष्यतीति समाश्वासयत। तदवसरे मन्त्री यादवः कर्णाली प्रदेशेन सहितानां विकट क्षेत्राणां नेपाली नागरिकेभ्यः स्वच्छस्य गुणस्तरीयस्य च पेयजलस्य स्वच्छतायाश्च प्रदानाय आत्मना प्रवर्तितमस्तीति अवोचत। विशिष्टानाम् अतिविशिष्टानाम् च व्यक्तिनाम् सुरक्षा व्यवस्थापन कार्यविधिः संशोधितोऽस्ति। मन्त्रिपरिषदाभिहितस्य प्रथम संशोधन सहितस्य कार्यविधेः प्रधानमन्त्रिणः केपी शर्मा ओलिनः चीनदेशस्य औपचारिक भ्रमणावसरे एव क्रियान्वयने आनीतोऽस्तीति गृहमन्त्रालयेन ज्ञापितम् वर्तते। राष्ट्रपतेः उपराष्ट्रपतेः प्रधानमन्त्रिणः विदेश भ्रमणे आगमन निर्गमनावसरे प्रास्थापनिके अभिवादने स्वागते च अतिविशिष्ट कक्षे उपस्थितानां पदाधिकारिणां संख्या न्यूनीकृतास्तीति गृहमन्त्रालयस्य सूचनाधिकारी दिल कुमार तामाङ असूचयत। कान्ति भैरव गुरूकुल विद्यालयेन ह्य विद्यालय स्तरीया आध्यात्मिक कविता वाचन प्रतियोगिता आयोजिता। कान्ति भैरव गुरूकुलस्य राधा माधव ठिमीवर्तिना समितिया च ह्यः संयुक्त रूपेण गोकर्णेश्वरस्य उत्तरवाहिनी स्थाने आयोजितायां प्रतियोगितायां उपत्यकायाः संस्कृत गुरूकुलानां संस्थानां च 15 विद्यार्थिनः सहभागित्वेन निश्चिताः आसन्। प्रतियोगितायां सोम सरला विद्यालयस्य आकाश अधिकारी प्रथम, नैमी सारण्य संस्कृत गुरूकुलस्य ऋषभ ढुङ्गाना द्वितीय, सोम सरला महाविद्यालयस्य रोचक रेग्मी, कान्ति भैरव गुरूकुलस्य योगेश उपाध्यायश्च तृतीयः सम्भूताः सन्ति इति समाचारः।